इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य प्रातः एकादशवादने दृश्यसम्मेलनद्वारा भारतीय अन्तरिक्ष स्टार्टअप स्काईरूट इत्यस्य इन्फिनिटी परिसरस्य उद्घाटनं करिष्यति। प्रधानमन्त्री स्काईरूट संस्थायाः प्रथमकक्षा उपग्रहस्य विक्रम प्रथम इत्यस्यापि अनावरणं करिष्यति, यस्मिन् कक्षायाम् उपग्रहान् प्रक्षेपयितुं क्षमता वर्तते। अत्याधुनिक सुविधायां बहुविध प्रक्षेपण वाहनानां विन्यासं विकासं एकीकरणं परीक्षणञ्च कर्तुं प्रायः 2 लक्ष वर्गफीट परिमितं कार्यस्थानं भविष्यति, यत्र प्रतिमासं एकस्य कक्षीय उपग्रहस्य निर्माणक्षमता भविष्यति। स्काईरूट इति भारतस्य प्रमुखा निजी अन्तरिक्ष संस्था अस्ति, यस्याः स्थापकौ भारतीय प्रौद्योगिकी संस्थायाः पूर्व विद्यार्थिनौ इसरो इत्यस्य पूर्व वैज्ञानिकौ पवनचन्दनः भरत ढाका च स्तः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य आरभ्य ओडिशा उत्तरप्रदेशयोः 2 दिवसीय यात्रायां भविष्यति। सा अद्य भुवनेश्वरे ओडिशा विधानसभायाः सदस्यान् सम्बोधयिष्यति। राष्ट्रपतिः श्वः लखनऊ नगरे ऐषमः ब्रह्मकुमारीणां विश्व एकतायै विश्वासाय च ध्यानम् इत्यस्य वार्षिक विषयस्य विमोचन समारोहस्य शोभां वर्धयिष्यति। तथा च लखनऊ नगरे राष्ट्रपतिः भारत स्काउट्स एण्ड गाइड्स समूहस्य वज्र महोत्सवस्य समापन समारोहस्य शोभाञ्च वर्धयित्वा सम्बोधनं करिष्यति। 2000 त्रिंशत्तम वर्षस्य कॉमनवेल्थ गेम्स इति राष्ट्रमंडल क्रीडा अहमदाबाद नगरे भविष्यति। यूनाइटेड किंगडम्स देशस्य ग्लास्गो नगरे महासभायां 74 राष्ट्रमंडल देशानां प्रतिनिधिभिः अस्य निर्णयस्य अनुमोदनं कृत्वा आधिकारिक रूपेण अस्य निर्णयस्य उद्घोषः कृतः। प्रधानमन्त्री नरेन्द्र मोदी भारतस्य उक्त उपलब्धये देशवासिनां कृते अभिनन्दनं कृतवान्। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः एकस्मिन् अन्तर्जालीय सन्देशे प्रसन्नतां प्रकटीकुर्वन् उक्तवान् यत् एषः महत्वपूर्णः विकासः राष्ट्रस्य क्रीडा पारिस्थितिकी तन्त्रस्य सामूहिकशक्तिं प्रतिभां भावनाञ्च प्रतिबिम्बयति। भारतेन पाकिस्तानस्य सद्यः एव अयोध्यायाः श्रीराममन्दिरे ध्वजस्थापनसमारोहस्य विषये कृतस्य टिप्पण्याः कृते आक्षेपः कृतः यत् अन्येषां कृते उद्बोधनं कर्तुं प्रतिवर्तिदेशः नैतिकतां न स्थापयति। गतसायं नवदिल्लीनगरे वार्ताहरान् ज्ञापयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् भारतं तैः कृतटिप्पणीः नाङ्गीकरोति। अरुणाचलप्रदेशस्य एकस्य भारतीय नागरिकस्य शांघाई विमानस्थानके निगडनस्य विषये विदेशमन्त्रालयेन चीनदेशस्य कार्याणि प्रश्नीकृतानि। चीनदेशस्य विषये प्रश्नस्य उत्तरं यच्छन् प्रवक्ता अवदत् यत् अरुणाचलप्रदेशः भारतस्य अभिन्नः भागः अस्ति, तथा च अस्य निर्विवादवास्तविकतायाः परिवर्तनविषये चीनपक्षस्य यः कोऽपि पदक्षेपः अस्वीकार्यः एव।
उन्होंने जो कदम उठाए थे हमारे नागरिक को लेके शांघाई एयरपोर्ट पर, उसके बाद हम लोगों ने कब देखा कि हम लोग एक स्टेटमेंट जारी किया गया है, उसमें हमने बताया है कि हिमाचल प्रदेश जो है वो भारत का एक अभिन्न अंग है और ये एक तरीके से स्वयं स्पष्ट है। किसी प्रकार की इस मामले पर हकीकत में कोई बदलाव नहीं आता है, ये चीनी पक्ष को इसके बारे में पूरी तरह से ज्ञात होना चाहिए।
रक्षामन्त्री राजनाथसिंहः अद्य नवदिल्लीनगरे इण्डोनेशियादेशस्य रक्षामन्त्री जाफ्री जासमोद्दीन इत्यनेन सह तृतीयस्य भारत इण्डोनेशिया रक्षामन्त्रिणां संवादस्य सहाध्यक्षतां करिष्यति। एकस्मिन् वक्तव्ये रक्षामन्त्रालयेन उक्तं यत् द्वावपि मन्त्रिणौ क्षेत्रीय सुरक्षाविकासानां समीक्षां करिष्यतः, बहुपक्षीय विषयेषु चर्चां करिष्यतः, द्विपक्षीय रक्षासहकार्यं गभीरं कर्तुं नूतनक्षेत्राणाम् अन्वेषणञ्च करिष्यतः। अवधेयमस्ति यत् इण्डोनेशियादेशस्य रक्षामन्त्री नवम्बर 26 27 द्विदिनात्मकं भारतयात्रायां वर्तते। उत्तरप्रदेशे सम्पूर्णे राज्ये एसआईआर विशेष सघन पुनरीक्षणस्य प्रथमचरणस्य शीघ्रगत्या सम्पन्नम् अभवत्। ग्रेटर नोएडानगरे आयोजिते कार्यक्रमे पूर्वकेन्द्रीयमन्त्री कलराजमिश्रः भागं गृहीतवान्।